भगवद्गीता पारायणम्। धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामका पाण्डवाश्चैव किमकुर्वत सञ्जय सञ्जय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् विषीदन्तमिदं वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच धूमेनाव्रियते वह्नी यथा दर्शो मलेन च यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम् परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ब्रह्मण्याधाय कर्माणि संगम त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रमिवाम्भसा योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकीयत चित्तात्मा निराशीरः परिग्रहः चतुर्विधा भजन्ते माम् जना सुकृतिनोर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभा ओमित्येकाक्षरं ब्रह्मा व्याहरन् मामनस्मरन् यः प्रयाति त्यजन् देहम् स याति परमां गतिम् पत्रं पुष्पं फलं तोयम् यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः महर्षीणां भृगुरहम् गिरामस्येकमक्षरम्
अक्षरम्
यज्ञानां जपयज्ञोऽस्मि
यज्ञानां जपयज्ञोऽस्मि
स्थावराणां हिमालयः
स्थावराणां हिमालयः
पश्य मे पार्थरूपाणि
पश्य मे पार्थरूपाणि
शतशोथ सहस्रशः
शतशोथ सहस्रशः
नानाविधानि दिव्यानि
नानाविधानि दिव्यानि
नानावर्णाकृतीनि च
नानावर्णाकृतीनि च
मय्या वेशमनो ये माम्
मय्या वेशमनो ये माम्
नित्ययुक्ता उपासते
नित्ययुक्ता उपासते
श्रद्धया परयोपेताः
श्रद्धया परयोपेताः
ते मे युक्ततमामताः
ते मे युक्ततमामताः
प्रकृतैव च कर्माणि
प्रकृतैव च कर्माणि
क्रियमाणानि सर्वशः
क्रियमाणानि सर्वशः
यः पश्यति तथात्मानम्
यः पश्यति तथात्मानम्
अकर्तारं स पश्यति
अकर्तारं स पश्यति
ब्रह्मणो हि प्रतिष्ठाहम्
ब्रह्मणो हि प्रतिष्ठाहम्
अमृतस्याव्ययस्य च
अमृतस्याव्ययस्य च
शाश्वतस्य च धर्मस्य
शाश्वतस्य च धर्मस्य
सुखसैकान्तिकस्य च
सुखसैकान्तिकस्य च
ऊर्ध्वमूलमधःशाखम्
ऊर्ध्वमूलमधःशाखम्
अश्वत्थं प्राहुरव्ययम्
अश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि
छन्दांसि यस्य पर्णानि
यस्तं वेद स वेदवित्
यस्तं वेद स वेदवित्
त्रिविधं नरकस्येदम्
त्रिविधं नरकस्येदम्
द्वारं नाशनमात्मनः
द्वारं नाशनमात्मनः
कामक्रोधस्तथा लोभः
कामक्रोधस्तथा लोभः
तस्मादेतत्रयं त्यजेत्
तस्मादेतत्रयं त्यजेत्
ॐ तत्सदिति निर्देशः
ॐ तत्सदिति निर्देशः
ब्रह्मणस्त्रिविदः स्मृतः
ब्रह्मणस्त्रिविदः स्मृतः
ब्राह्मणास्तेन वेदाश्च
ब्राह्मणास्तेन वेदाश्च
यज्ञाश्च विहिता पुरा
यज्ञाश्च विहिता पुरा
सञ्जय उवाच
सञ्जय उवाच
इत्यहं वासुदेवस्य
इत्यहं वासुदेवस्य
पार्थस्य च महात्मनः
पार्थस्य च महात्मनः
संवादमिममश्रौषम्
संवादमिममश्रौषम्
अद्भुतं रोमहर्षणम्
अद्भुतं रोमहर्षणम्
श्रीभगवानुवाच
श्रीभगवानुवाच
कर्मण्येवाधिकारस्ते
कर्मण्येवाधिकारस्ते
मा फलेषु कदाचन
मा फलेषु कदाचन
मा कर्म फलहेतुर्भूः
मा कर्म फलहेतुर्भूः
मा ते सङ्गो स्वकर्मणि
मा ते सङ्गो स्वकर्मणि
ॐ